सदाकरात्तमोदकं सदा विमुक्ति साधकं कलाधरावतं सकं विलासि लोकरक्षकं नायकैकनायकं नाशिते भदैत्यकं नताशुभासुरनायकं नमामितं विनायकं मुदाकरात्तमोदकं सदा विमुक्ति साधकं कलाधरावतं सकं विलासिलोकरक्षकं अनायकैकनायकं विनाशिते भदैत्यकं नताशुभासुरनायकं नमामितं विनायकम् नेतरादिभीकरं नवोदितकभास्वरं न मत्सुरारिनिर्जरं नताधिकापदुत्तरं सुरस्वरं निजिश्वरं गजस्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरं समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं धरेतरोदरं वरं वरे भवक्रमक्षरं कृपाकरं क्षमाकरं मुदाकरं यशस्करम् नमस्कृतं नमस्कृतं नमस्करोमि भास्वरम् अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम् कपालदानवारणं भजे पुराणवारणम् ितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् अचिञ्चरूपमन्तहीनमन्तरायकृन्तनम् हृदन्तर निरन्तरं वसन्तमेव योगिना तमेकदं तमेव तं विचिन्तयामि सन्ततम् गणेश पञ्चरत्नमादरेण जुम्बकम् प्रजल्पति प्रभातके हृदि स्मरं गणेश्वरम् अरोगतामदोषतां सुसाहितीं सुपुत्रता समाहितायुरष्टभूतिमभ्युपैति शोचिरा इति श्री परमहंस परिवराजकाचार्यस्य श्री गोविंद भगवतु पूज्यपादशिष्यस्य శ్రీశంకర భగవత గణేశ పంచరత్నం సంపూర్ణం.